श्री भगवान उवाच मैयावेश्य मनो येमा नित्ययोक्ता उपासते श्रद्धया परयोपेता ते मे युक्ततमामता ये त्वाक्षरमनिर्देश्य मद्यक्तं पयुपासते सर्वत्र गमचिन्त्यञ्च कूटस्थमचलं ध्रुवम् सन्नियम्येन्द्रियग्रामम् सर्वत्र समबोद्धय ते प्राप्नुवन्ति मामेव सर्वभूतहितेरता क्लेशोऽधिकतरस्तेषामव्यक्ता सक्तते कृष्णाम् अव्यक्ता हि गते दुःखम् देहवद्भिरवाप्यते ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं समुद्धर्ता मृत्यु संसारसागरा भवामि न शिरात्पार्थ मय्यावेशितचेतसाम् मय्येव मनाधस्य मजिबोधं निवेशय निवसिष्यसि मय्येव अथ ऊर्ध्वं न संशय अथ चेत्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामेच्छास्त्वं धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अथैतदप्यशक्तोऽपि कर्तुमद्योगमाश्रित सर्वकर्मफलत्यागम् ततः कूयतात्मवान् श्रेयोऽसि ज्ञानमभ्यासाध्यानाध्यानम् विशिष्यते ध्यानात् कर्मफलत्यागस्त्यागशान्तिरनन्तरम् अद्वेष्टा सर्वभूतानां नैक करुण एव च निर्ममो निरहङ्कार समदुःखसुखक्षणी
सन्तोष्टा सततं योगी यदात्मा दृढनिश्चय मय्यार्पितमनोबोधे यो मद्भक्तः स मे प्रिय
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य हर्षामर्षभयोद्वेमे मोक्तो यस्य च मे प्रिय अनपेक्षः श्रुतिर्दक्ष उदासीनो गतव्यथ सर्वारं ृष्टि न शोचति न कांक्षति शुभाशुभ परित्यागी भक्तिमान्यसने तथा मानापमान शीतोष्णसुरदुःखेषु समासङ्गविवर्जितः तुल्यनिन्दास्तु ते मौने सन्तुष्टो येन केन चेत् अनिकेतस्थिरमते भक्तिमाने प्रियो नर ये तु धर्व्यादितमिदम् यथोक्तम् पर्युपासते शब्दधानामत्परमा भक्तास्तेतीव मे क्रिया भक्तास्तेतीव मे क्रिया ॐ तत्सत् श्रीमद्भगवद्गीतासुश्रीसुदयम् गुरुशास्त्रे स्थितिश्रीरामकृष्णदेवभक्ति